ಗಣಪತಿಗುಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತಿ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಓಂ ನಮೋ ಭಗವತೆ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೆ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯ ತವತಯಾ ನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೂರಘೋರ ಪಾಪಕಾಶಿನೀ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಪಿ ಚಾಕಶೀ ಯಾಮಿಷುಂ ಗಿರಿಶಂತಹಸ್ತೇ ಬಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂಗಿರಿತ್ರತಾಂ ಗುರುಮಾಹಿಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾ ವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗತ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದತಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೇಗಶ್ಚ ಸರ್ವಾಂಜಂಭಯನ್ ಸರ್ವಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೋ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರೋಃ ಸುಮಂಗಳಃ ಯೇ ದೇವಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡ ಈಮಹೇ ಅಸವ್ಯೋ ವಸತ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉದೈನಂ ಗೋಪಾ ಅದೃಶನ್ನ ದೃಶನ್ನು ದಹಾರ್ಯಃ ಉದೈನಂ ವಿಶ್ವಾಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಢುಷೇ ಅಧೋಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ದೇಭ್ಯೋ ಕರನ್ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ವಮುಪಯೋರಾತ್ನಿಯೋರ್ಜಾಂ ಯಾಶ್ಚ ದೇಹಸ್ತ ಇಷವ ಪರಾತ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ದೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾನಾಮುಖ ಶಿವೋ ನ ಸುಮನಾಭವ ವಿಜ್ಯಂ ದನುಕ್ಕ ಪದ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೇ ಹೇತಿರ್ಮೀಡುಷ್ಟ ಮಹಸ್ತೆ ಬಭೂವತೆ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ತ್ವಾಯುಧಾಯ ನಾತತಾಯ ದೃಷ್ಟವೇ ಉಭಾಭ್ಯಾಮುತತೆ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯಿಷು ದಿತ್ತ ವಾರೇ ಅಸ್ಮನ್ನಿಧೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯು नित्यम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः तस्मिञ्जराय त्विषीमते पदीनाम् पतये नमो नमो बब्लुषाय विव्यादिनेनानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमः। सूताया हन्त्यायवनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषा क्रन्दयते पत्तीनाम् पतये नमो नमः। कृत्सवीताय धावते सत्त्वनाम् पतये नमः। नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः। ककुभाय निषङ्गिने सेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो
वे परिचरायारण्यानाम् पतये नमो नमः। श्रिकाविभ्यो जिगागुम् सद्भ्यो मुष्णताम् पतये नमो नमः। सिमद्भ्यो नक्तम् चरद्व्यप्रकृन्तानाम् पतये नमो नम। उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम। इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम। आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम। आगच्छद्भ्यो विसृजभ्यश्च वो नमो नम। स्यद्भ्यो विद्यभ्यश्च वो नमो नम। आसीनेभ्यः शयानेभ्यश्च वो नमो नम। स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम। स्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नम। सभाभ्यः सभापतिभ्यश्च वो नमो नमो। अश्वेभ्योऽश्वपतिभ्यश्च वो नमः। नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम। उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो। गृत्सेभ्यो गृत्सपदिभ्यश्च वो नमो नमो। व्रातेभ्यो व्रातपदिभ्यश्च वो नमो नमो। गणेभ्यो गणपदिभ्यश्च वो नमो नमो। विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो। महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो। रथिभ्यो रथेभ्यश्च वो नमो नमो। रथेभ्यो रथपदिभ्यश्च वो नमो नम। सेनाभ्यः सेनानिभ्यश्च वो नमो नमः। शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः। रक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः। कुलालेभ्यः कर्मारेभ्यः
ಸ್ತೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ ಪುಂಜಿಸ್ತೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ ಇಷುಕೃದ್ಭ್ಯೋ ಧನ್ವಕೃದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ ಮೃಗಯುಭ್ಯಶ್ವನಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃಶ್ವಭ್ಯಶ್ವಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮಃ ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಶರ್ವಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮೋ ನೀಲಗ್ರೀವಾಯ ಚ ಶಿತಿಕಂಠಾಯ ಚ ನಮಃ ಕಪದ್ದಿನೇ ಚ ವ್ಯುಕ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೇ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಪಿವಿಷ್ಟಾಯ ಚ ನಮೋ ಮೀಡುಷ್ಟಮಾಯ ಚೇಷುಮತೇ ಚ ನಮೋ ಹ್ರಸ್ವಾಯ ಚ ವಾಮನಾಯ ಚ ನಮೋ ಬೃಹತೇ ಚ ವರ್ಷೀಯಸೇ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸಂವೃದ್ಧನೇ ಚ ನಮೋ ಅಗ್ರಿಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮಃ ಆಶವೇ ಚಾಜಿರಾಯ ಚ ನಮಃಶೀಘ್ರಿಯಾಯ ಚ ಶೇಭ್ಯಾಯ ಚ ನಮಃ ಓರ್ಮ್ಯಾಯ ಚ ವಸ್ವನ್ಯಾಯ ಚ ನಮಃ ಶ್ರೋತಸ್ಯಾಯ ಚ ದ್ವೀಪ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮಃ ಪೂರ್ವಜಾಯ ಚ ಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚ ಪಗಲ್ಭಾಯ ಚ ನಮೋ ಜಗನ್ಯಾಯ ಚ ಬುದ್ಧಿಯಾಯ ಚ ನಮಃ ಸೋಭ್ಯಾಯ ಚ ಪ್ರತಿಸರ್ಯಾಯ ಚ ನಮೋ ಜ್ಞಾನ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮಃ ಉರ್ವರ್ಯಾಯ ಚ ಖಲ್ಯಾಯ ಚ ನಮಃ ಶ್ಲೋಕ್ಯಾಯ ಚಾವಸಾನ್ಯಾಯ ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷ್ಯಾಯ ಚ ನಮಃ ಶ್ರವಾಯ ಚ ಪ್ರದಿಶ್ರವಾಯ ಚ ನಮಃ ಆಶುಷೇಣಾಯ ಚಾಶುರಧಾಯ ಚ ನಮಃ ಶೂರಾಯ ಚಾವಬಿಂದತೇ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರೂಧಿನೇ ಚ ನಮೋ ಬಿಲ್ಮಿಣೇ ಚ ಕವಚಿನೇ ಚ ನಮಃ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ಲುಂದುಭ್ಯಾಯ ಚ ಹನನ್ಯಾಯ ಚ ನಮೋ ದೃಷ್ಣವೇ ಚ ಪ್ರಮೃಷಾಯ ಚ ನಮೋ ದೂತಾಯ ಚ ಪ್ರಹಿತಾಯ ಚ ನಮೋ ನಿಷಂಗಿನೇ ಚೇಷುಧಿಮತೇ ಚ ನಮಃ ಪೀಷ್ಣೇಶವೇ ಚಾಯುಧಿನೇ ಚ ನಮಃ ಸ್ವಾಯುಧಾಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮಃ ಶ್ರುತ್ಯಾಯ ಚ ಪತ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ನೀಪ್ಯಾಯ ಚ ನಮಃ ಸೋದ್ಯಾಯ ಚ ಸರಸ್ಯಾಯ ಚ ನಮೋ ನಾದ್ಯಾಯ ಚ ವೈಷಂದಾಯ ಚ ನಮಃ ಕೋಪ್ಯಾಯ ಚ ವಟ್ಯಾಯ ಚ ನಮೋ ವಶ್ಯಾಯ ಚ
ವಶ್ಯಾಯ ಚ ನಮೋ
ಮೇಧ್ಯಾಯ ಚ ವಿದ್ಯುತ್ಯಾಯ ಚ ನಮಃ ಗೇತ್ರಿಯಾಯ ಚ ತಪ್ಯಾಯ ಚ ನಮೋ ವಾತ್ಯಾಯ ಚ ರೇಷ್ಮಿಯಾಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಯ ಚ ವಾಸ್ತುಪಾಯ ಚ ಓಂ ಹರ 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 ಓಂ ನಮಃ ಸೋಮಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ತಾಮ್ರಾಯ ಚ ಋಣಾಯ ಚ ನಮಃ ಶಂಗಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮಃ ಉಗ್ರಾಯ ಚ ಭೀಮಾಯ ಚ ನಮೋ ಅಗ್ರೇ ವಧಾಯ ಚ ದೂರೇ ವಧಾಯ ಚ ನಮೋ ಹಂತ್ರೇ ಚ ಹನೀಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯೋ ನಮಸ್ತಾರಾಯ ನಮಃ ಶಂಭವೇ ಚ ಮಯೋಭವೇ ಚ ನಮಃ ಶಂಕರಾಯ ಚ ಮಯಸ್ಕರಾಯ ಚ ನಮಃ ಶಿವಾಯ ಚ ಶಿವತರಾಯ ಚ ನಮಃ ತೀರ್ಥ್ಯಾಯ ಚ ಕೂರ್ಯಾಯ ಚ ನಮಃ ಪಾರ್ಯಾಯ ಚ ವಾರ್ಯಾಯ ಚ ನಮಃ ಪ್ರತರಣಾಯ ಚೋತ್ತರಣಾಯ ಚ ನಮಃ ಆತಾರ್ಯಾಯ ಚ ಲಾದ್ಯಾಯ ಚ ನಮಃ ಚಷ್ಪ್ಯಾಯ ಚ ಭೇಣ್ಯಾಯ ಚ ನಮಃ ಸಿಗತ್ಯಾಯ ಚ ಪ್ರವಾಕ್ಯಾಯ ಚ नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः चुष्ट्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्म्याय च सौर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय च विघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्मत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसत्पदे दरिद्रन्नीललोहिता एषाम् पुरुषाणाम् एषाम् पशूनाम् माभेर्मा रोमो येषाम् किञ्च नाम मते याते रुद्रशिवा तनु शिवा विश्वागभेषजे शिवा रुद्रस्य भेषजेतया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने शयद्वीराय प्रवरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टङ्गामे अस्मिन्ननादुरम् मृडानो रुद्रो तनो मयस्कृते क्षयद्वीराय नमसा विधेमते यच्चम् च योश्च मनुराय जे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामिदो वधेरविष्मन्दो नमसा विधेमते आराते गोघ्नमुत पूरुषग्ने शयद्वीराय सुम्नमस्मेते अस्तु रक्षा च नो अदि च देव ब्रूयथा च नः शर्म यच्च द्विबरुहाः सुहिश्रुतम् गत्त सदम् युवानम् मृगन्न भीममुपहत्नुमुग्रम् मृडा च रुद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेते वृणक्तु परित्वेषस्य दुर्मदिरघायो अवस्थिरा भगवद्यस्तनुष्वमीडुस्तोकायतनयाय मृडया मीडुष्टमशिवतमशिवो नः सुमना भवा परमे वृक्ष आयुधम् निधाय कृत्यम् वसा नमाचर पिनाकम् बिभ्रदागहे विगिरिध विलोचित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् एतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने वधन्वानि जन्मसि अस्मिन्महत्यर्णवेन्दरिक्षे भवा अधि नीलग्रीवाश्रितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्रितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जडानीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासकवर्तिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पतिरक्षयैलभृदायव्युदः ये तीर्थानि प्रचरन्ति सृगावन्तो निषङ्गिणः यगेतावन्तश्च भूयागुन्तश्च दिशो रुद्रावितस्तिरे तेषागुन्तकस्रयो जने बधन्वानि दन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषभस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशो दीचेर्दशोर्द्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् विष्मो यश्च नो द्वेष्टितम् भोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्रव्यो अप्सु योषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योमत्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषु स्थुधन्वायो विश्वस्य क्षय दिवे सजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमोभिर्देवमसुरन्धुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे सजोऽयम् शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसेवावर्धन्तु वाङ्गिरः जुम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे दीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवच्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमानम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे कृप्तम् च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे
शञ्च मे वयश्च मे प्रियम् च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सग्धिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जयेत्रम् च म औद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कोयवाश्च मे नम् च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे णवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च मगिन्द्रश्च मे सोमश्च मगिन्द्रश्च मे सविता च मगिन्द्रश्च मे सरस्वती च मगिन्द्रश्च मे पूषा च मगिन्द्रश्च मे बृहस्पतिश्च मगिन्द्रश्च मे मित्रश्च मगिन्द्रश्च मे वरुणश्च मगिन्द्रश्च मे त्वष्टा च मगिन्द्रश्च मे धाता च मगिन्द्रश्च मे विष्णुश्च मगिन्द्रश्च मे श्विनौ च मगिन्द्रश्च मे मरुतश्च मगिन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च मगिन्द्रश्च मेऽन्तरिक्षम् च मगिन्द्रश्च मे द्यौश्च मगिन्द्रश्च मे दिशश्च मगिन्द्रश्च मे मूर्धा च मगिन्द्रश्च मे प्रजापतिश्च मगिन्द्रश्च मे
अगुंसुश्च मे रश्मिश्च मे दाभ्यश्च मे देवतिश्च म उपागुं सुश्च मेऽन्तर्यामश्च मैन्द्रवायवश्च मे मैत्रा वरुणश्च म आश्विनश्च मे प्रति प्रस्थानश्च मे शुक्रश्च मे मन्धे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतो ग्रहाश्च मेति ग्राह्याश्च मैन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदीयाश्च मे माहेन्द्रश्च मादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इद्मश्च मे
बर्हिश्च मे वेदिश्च मे
धिष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म
उपरवाश्च मे
धिषवने च मे द्रोणकलशश्च मे वायव्यानि च मे भूतभृच्च म आधवनीयश्च म
आग्नेयेन्द्रम् च मे हविर्धानम् च मे
गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पशताश्च मे बभृतश्च मे स्वगाकारश्च मे
अग्निश्च मे घर्मश्च मेऽर्कश्च मे
सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरिरङ्गुलयो दिशश्च मे
यज्ञेन
कल्पन्ताम्रक्च मे साम च मे सोमश्च मे यजुश्च मे
दीक्षा च
मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे
यज्ञेन
कल्पे ताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे
त्रयवे च मे दृत्यवाच्च मे दृत्यौहे च मे पञ्चाविश्च मे
पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे
तुर्यवाक्च
मे
तुर्यौहे च मे
पष्ठवाक्च
मे
पष्ठौहे च म
उक्षा च
मे वशा च म
ऋषभश्च
मे
देहच्च
मे
नड्वाञ्च
मे
धेनुश्च
म
आयुर्यज्ञेन
कल्पताम्
प्राणो
यज्ञेन
कल्पतामपानो
यज्ञेन
कल्पताम्
यानो
यज्ञेन
कल्पताम्
चक्षुर्यज्ञेन
कल्पता
दुःश्रोत्रम्
यज्ञेन
कल्पताम्
मनो
यज्ञेन
कल्पताम्
वाग्
यज्ञेन
कल्पताम्
आत्मा
यज्ञेन
कल्पताम्
यज्ञो
यज्ञेन
कल्पताम्
एका च
मे
तिस्रश्च
मे
पञ्च च
मे
सप्त च
मे
नव च
म
एकादश
च मे
त्रयोदश च
मे
पञ्चदश
च मे
सप्तदश
च मे
नवदश
च म
एकविगुंशतिश्च
मे
त्रयोविगुंशतिश्च
मे
पञ्चविगुंशतिश्च
मे
सप्तविगुंशतिश्च
मे
नवविगुंशतिश्च
म
एकत्रिगुंशच्च
मे
त्रयस्त्रिगुंशच्च
मे
चतस्रश्च
मेऽष्टौ
च मे
द्वादश
च मे
षोडश
च मे
विगुंशतिश्च
मे
चतुर्विगुंशतिश्च
मे
साविगुंशतिश्च
मे
द्वात्रिगुंशच्च
मे
षट्त्रिगुंशच्च
मे
चत्
चत्वारिगुं शच्च मे चतुश्चत्वारिगुं शच्च मे ष्टा चत्वारिगुं शच्च मे वाजश्च प्रसवश्च पिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्था मदानिशगुं शिषद्विश्वे देवासोक्तवाच पृथिवीमातर्मामाहिगुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तत्संयोरावृणीमहे गातुं यज्ञपतये देवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति 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 सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषानः यदन्येनातिरोहति एतावाणस्य महिमा अतोज्यायागुश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्व उदयत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत साशनानशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्याद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिदः कृताः देवा यद्यज्ञम् तन्वानाः अवध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन्न पुरुषम् जातमग्रदः तेन देवा अयजन्त साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् प्रषदाज्यम् पशुगुस्ताकुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः रजः सामानिजग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कथिराभ्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरोपादा भुच्छेदे
ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरु तदस्य यद्वैश्यः पद्व्यागुंशूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेदम् पुरुषम् महान्तम् आदित्यवर्णम् नमसस्तु पारे सर्वाणि रूपाणि विचित्य देहः नामानि कृत्वाभिवदन्यरास्ते धाता पुरस्ताद्यमुदाजहार शक्रप्रभिद्वान् प्रतिशक्ष्यतस्रः तमेवम् विद्वानमृत इह भवति नान्यपन्था अयनाय विद्यते यज्ञेन यज्ञमयचन्ददेवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्दे यत्र पूर्वे साध्यासन्ति देवाः अद्य सम्बोधः पृथिव्यैरसा च विश्वकर्मणः समवर्ततादि तस्य त्वष्टाभिदधद्रूपमेधि तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेदम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यपन्ता विद्यते जनाय प्रजापतिः शरति गर्भे अन्धः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्यातपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुजाय ब्राह्मये रुजम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्तैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे रेशते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छंयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ
शान्ति शान्ति शान्तिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ब्रह्मविदाप्नोति परम् तदेशाभ्युक्ता सत्यम् ज्ञानमदन्तम् ब्रह्मा यो वेदनिहितम् गुहायाम् परमे व्योमन् सोऽश्नुते सर्वान् कामान् सः ब्रह्मणा विपश्चितेति तस्माद्वा एतस्मादात्मना आकाश सम्भूतः आकाशाद्वायोः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी पृथिव्या ओषधयः ओषधेभ्योऽन्नम् अन्नात् पुरुषः स वा एष पुरुषोन्नरसमयः तस्येदमेव शिरः अयम् दक्षिणः पक्षः अयमुत्तरः पक्षः अयमात्मा इदम् पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति अन्नाद्वये प्रजा प्रजायन्ते याकाश्च पृथिवीगुश्रुताः अथो अन्ने नैव जीवन्ते अथैनदपि यन्त्यन्ततः अन्नगुम्हि भूतानाम् चेष्टम् तस्मात् सर्वौषधमुच्यते सर्वम् वैतेन्नमाप्नुवन्ते येन्नम् ब्रह्मोपासते अन्नगुम्हि भूतानाम् चेष्टम् तस्मात् सर्वौषधमुच्यते अन्नाद्भूतानि जायन्ते जातान्यन्नेन वर्धन्ते अद्यदेति च भूतानि तस्मादन्नम् तदुच्यत इति तस्माद्वा एतस्मादन्नरसमयात् अन्योन्तर आत्मा प्राणमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य प्राण एव शिरः व्यानो दक्षिणः पक्षः अपान उत्तरः पक्षः आकाश आत्मा पृथिवी पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति प्राणम् देवा अनुप्राणन्ति मनुष्या पशवश्च ये प्राणो हि भूतानामायुः तस्मात् सर्वायुषमुच्यते सर्वमेव त आयुर्यन्ते ये प्राणम् ब्रह्मोपासते प्राणो हि भूतानामायुः तस्मात् सर्वायुषमुच्यत इति तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्मात् प्राणमयात् अन्योन्नर आत्मा मनोमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य यजुरेव शिरः ऋग्दक्षिणः पक्षः सामोत्तरः पक्षः आदेश आत्मा अथर्वाङ्गिरसः पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्यमनसा सह आनन्दम् ब्रह्मणो विद्वान् न बिभेति कदाचनेति तस्येष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्मान्मनोमयात् अन्योन्तर आत्मा विज्ञानमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधता अन्वयम् पुरुषविधः
तस्य श्रद्धैव शिरः ऋतम् दक्षिणः पक्षः सत्यमुत्तरः पक्षः योग आत्मा महपुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति विज्ञानम् यज्ञम् तनुते कर्माणि तनुतेऽपि च विज्ञानम् देवाः सर्वे ब्रह्मज्येष्ठमुपासते विज्ञानम् ब्रह्म चेद्वेदा तस्माच्चेन प्रमाद्यते शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुत इति तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्माद्विज्ञानमयात् अन्योन्तर आत्मानन्दमयः तेनैष पूर्णः सभा एष पुरुषविध एव तस्य पुरुषविधता अन्वयम् पुरुषविधः तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्षः आनन्द आत्मा ब्रह्मपुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति असन्नेव स भवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद सन्तमेनन्ततो विदुरिति तस्यैष एव शारीर आत्मा यः पूर्वस्य अथातो नः प्रश्नाः उता विद्वानमुन्लोकम् प्रेत्य कश्चन गच्छति आहो विद्वानमुन्लोकम् प्रेत्य कश्चित् समश्नुताहु सोकामयता बहुस्याम् प्रजायेति सतपोतप्यता सतपस्तत्त्वा इदगुम् सर्वमसृजत यदिदम् किञ्च तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्चत्यच्चाभवत् निरुक्तम् च निरुक्तम् च निलयनम् च निलयनम् च विज्ञानम् च विज्ञानम् च सत्यम् चारुतम् च सत्यमभवत् यदिदम् किञ्च तत्सत्यमित्याचक्षरे तदप्येष श्लोको भवति असद्वा इदमग्र आसीत् ततो वै सदजायत तदात्मानग्रस्वयमकुरुत तस्मात् तत्सुकृतमुच्यत इति यद्वै तत्सुकृतम् रसो वै सः रसगृह्येवायम् लब्ध्वानन्दी भवति कोर्गेवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्दयाति यदा ह्येवैष एतस्मिन्न दृश्ये नात्मे निरुक्ते निलयने भयम् प्रतिष्ठाम् विन्दते अथ सो भयम् गतो भवति यदा ह्येवैष एतस्मिन्नुदरमन्तरम् कुरुते अथ तस्य भयम् भवति तत्त्वेवमयम् विदुषो मन्वानस्य तदप्येष श्लोको भवति भीषास्माद्वातः भवति भीषोदेति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति सैषानन्दस्य मीमागुंसा भवति युवात्स्यात् साधु युवाध्यायकः आशिष्ठो दृढिष्ठो बलिष्ठः तस्येयम् पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मानुष आनन्दः तेये शतम् मानुषा आनन्दाः स एको मनुष्य गन्धर्वाणामानन्दः श्रोत्रियस्य चाकामः तस्य तेये शतम् मानुष्य गन्धर्वाणामानन्दाः स एको देवगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामः तस्य तेये शतम् देवगन्धर्वाणामानन्दाः स एकः पितृणाम् चिरलोकलोकानामानन्दः श्रोत्रियस्य चाकामः तस्य तेये शतम् पितृणाम् चिरलोकलोकानामानन्दाः स एक आचानचानाम् देवानामानन्दः श्रोत्रियस्य चाकामः तस्य तेये शतमाचानचानाम् देवानामानन्दाः स एकः कर्म देवानाम् देवानामानन्दः ये कर्मणा देवानपि यन्ते श्रोत्रियस्य चाकामः तस्य तेये शतम् कर्म देवानाम् देवानामानन्दाः स एको देवानामानन्दः श्रोत्रियस्य चाकामः तस्य तेये शतम् देवानामानन्दाः स एक इन्द्रस्यानन्दः श्रोत्रियस्य चाकामः तस्य तेये शतमिन्द्रस्यानन्दाः स एको बृहस्पतेरानन्दः श्रोत्रियस्य चाकामः तस्य तेये शतम् बृहस्पतेरानन्दाः स एकः प्रजापतेरानन्दः श्रोत्रियस्य चाकामः तस्य तेये शतम् प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामः तस्य स यश्चायम् पुरुषे यश्चासावादित्ये स एकः स य एवंवित् अस्माल्लोकान् प्रेत्य एतम् प्राणमयमात्मानमुपसङ्क्रामते एतम् मनोमयमात्मानमुपसङ्क्रामते एतम् विज्ञानमयमात्मानमुपसङ्क्रामते एतमानन्दमयमात्मानमुपसङ्क्रामते तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्यमनसा सह आनन्दम् ब्रह्मणो विद्वान् न बिभेति कुतश्च नेति एतगुम् हवावन तपति किमहगुम् साधुना करवम् किमहम् पापमकरवमिति स य एवम् विद्वानेते आत्मानग्रुस्पृणुते उभे हे वैष एते आत्मानग्रुस्पृणुते य एवम् वेदा इत्युपनिषत् सहनाववतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु। ॐ शान्ति शान्ति शान्तिः।